इति गुह्यतमं शास्त्रम्, इति गुह्यतमं शास्त्रम्, इदमुक्तं मयानघ, इदमुक्तं मयानघ, एतद्बुद्ध्वा बुद्धिमान् स्यात्, एतद्बुद्ध्वा बुद्धिमान् स्यात्, कृतकृत्यश्च भारत, कृतकृत्यश्च भारत।